सर्वेषां स्वागतं। प्रार्थनया आरम्भं कुर्मः। कोऽपि वक्तुमिच्छति वा?
अहं वदामि। शुक्लाम्बरं धरं विष्णु शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत सर्वविघ्नोपशान्तये। सरस्वती नमस्तुभ्यं वरदे कामरूपिणि। विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः। गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरुवे नमः। ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः।
धन्यवादः भगिनि।
क्षम्यतां, प्रथमं श्लोकस्य राग सम्यक् नास्ति।
चिन्ता नास्ति, चिन्ता नास्ति। रागम् आवश्यकम् इति नास्ति भगिनि। वयं गीतमिव गायामः चेत् सरस्वती नमस्तुभ्यम् इति गातुं शक्नुमः, परन्तु श्लोकः इव वक्तुम् इच्छामः चेत् अत्र ह्रस्वति एवम् अस्ति खलु। सो सरस्वती नमस्तुभ्यम् इति श्लोकः इव, परन्तु सरस्वती नमस्तुभ्यम् इति यदा वयं गायामः तथा आगच्छति, परन्तु श्लोके तथा न। सम्यक् भगिनि, धन्यवादः। अस्तु, सुभाषितम् एवम् अस्ति। लोभाविष्टो नरो वित्तं वीक्षते नैव च पदम्। पुनः पठामि। लोभाविष्टो नरो वित्तं वीक्षते नैव च पदम्। लोभाविष्टो नरो वित्तं वीक्षते नैव च पदम्। दुग्धं पश्यति मार्जरो तथा न लघुडा हतिम्। दुग्धं पश्यति मार्जरो तथा न लघुडा हतिम्। इत्युक्ते लोभाविष्टः नरः, अत्र सन्धिः अस्ति। विष्टो नरो इति विसर्गसन्धिः अस्ति। विसर्गस्य स्थाने उकारः भवति, अनन्तरं स्वरसन्धिः अस्ति। अग्रे पठामः सर्वं, परन्तु जानन्तु अत्र सन्धिः अस्ति। नरो इति पदं नास्ति, अतः नरः। लोभाविष्टः नरः, कीदृशनरः? लोभाविष्टः नरः। लोभाविष्टः इत्युक्ते लोभया आविष्टः। अविष्टः इत्युक्ते पूर्णं तस्य मनसि लोभः अस्ति। तादृशजनः, तादृशनरः किं करोति? वित्तं वीक्षते। वित्तम् इत्युक्ते धनम् अथवा किं यत् किमपि सः सम्यक् इति चिन्तयति, तादृशं धनं, धनम् इत्येव, अथवा वित्तं। वित्तं वीक्षते, वीक्षते इत्युक्ते पश्यति। धनं, धनम् एव पश्यति। नैव, अत्रापि सन्धिः अस्ति, न एव, न एव च आपदम्। आपदम् इत्युक्ते धनसम्पादनसमये, धनसम्पादनसमये किमपि दुष्कार्यम् अस्ति चेत्, दुष्कार्यं कृत्वा आपद् इत्युक्ते सम्यक् सङ्घटनम् इति वदामः खलु, सङ्घटनं। सम्यक् स्थितिः नास्ति, दुस् दुस्थिति अथवा आपद् सङ्घट सङ्घटम् अस्ति चेत् सङ्घटनं न सङ्घटं सङ्घटं न पश्यति केवलं धनमेव पश्यति पुनरेकवारं वदामि यस्य मनसि लोभः अस्ति सः धनमेव पश्यति परन्तु सङ्घटं न पश्यति अत्रापि पश्यति लोभी यत्र यस्य मनसि लोभः अस्ति तं लोभी इति वदामः लोभी मनुष्यः यस्य मनसि पर्याप्तम् इति न आगच्छति पर्याप्तम् इति पदं मनसि न आगच्छति इतोपि आवश्यकम् इति सः चिन्तयति केवलं धनलाभमेव एव पश्यति परन्तु अन्तर्वर्तितम् इत्युक्ते धनसम्पादनसमये अन्तर्भवितुं सङ्घटं न पश्यति एवमेव अस्तु अग्रे अपि किमपि अस्ति परन्तु अनन्तरं कष्टम् अनुभवति एव अनन्तरं कष्टम् अनुभवति एव उदाहरणम् अस्ति मार्जारः दुग्धं पश्यति मार्जारः अत्रापि मार्जारो अस्ति परन्तु मार्जारः दुग्धं पश्यति मार्जारः दुग्धं पश्यति परन्तु लघुडाहतिं लघुडा इत्युक्ते दण्डेन प्रहारं प्राप्नोति परन्तु तत् न चिन्तयति तत् न पश्यति साधारणतया वयमेव दुग्धं दास्यामः खलु मार्जारः अस्ति चेत् मार्जाराय वयमेव दुग्धं दास्यामः परन्तु यदा मार्जारः चोरः इव दुग्धं पिबति सः दुग्धं पीत्वा गच्छामि इति चिन्तयति परन्तु दण्डं प्राप्नोति इति न चिन्तयति तादृशम् उदाहरणम् अस्ति अत्र इत्युक्ते यथा तथा उपयुज्य अपि वक्तुं शक्नुमः यथा दुग्धम् एव पश्यति मार्जारः लघुडाहतिं न पश्यति तथा लोभाविष्टः नरः वित्तं वीक्षते एव न च आपदम् इति प्रश्नः अस्ति वा अवगच्छन्ति वा लोभाविष्टो नरो वित्तं वीक्षते नैव चापदं दुग्धं पश्यति मार्जारो तथा न लघुडाहतिं
भगिनी पदं मीन्स् कष्टम्
अहन आपदम् च आपद् आपद् इति अस्ति आपदं द्वितीया विभक्तिरूप आपत् आपदम् सो अत्र नैव च आपदं मिलित्वा चापदम् इति अस्ति अन्य प्रश्नः अस्ति वा नास्ति अस्तु
भगिनि तत्र च किमर्थम् अस्ति
सो च अपि एव एतादृशपदं वयं योजयामः वयम् इत्युक्ते सुभाषितकारः योजयति
मीटर् भगिनि
मीटर् मीटर् आम्
अस्तु भगिनि धन्यवादः
आम्
आपद अर्थम् ऑब्स्टिकल्स्
अथवा ट्रबल्
धन्यवादः
अस्तु गीतं प्रति गच्छामः वयं जानीमः एव खलु कोऽपि गातुम् इच्छति वा अस्तु मिलित्वा गायामः वा
आं भगिनि आं भगिनि
अस्तु अवनितलं पुनरवतीर्णा स्या अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा निपततु पण्डितहरशिरसि प्रवहतु नित्यं वचसि प्रविशतु पय्याकरणमुखं पुनरपि वहता जलमनसि पुनरेकवारं गाया भवा न वा मास्तु खलु पुत्र सहस्रं समुद्रितं स्यात् पुत्र सहस्रं समुद्रितं स्यात् जन्म विकारभगीरथवं सोऽस्माकं पायन्तु कृतनिर्धारः पायन्तु ग्रामं ग्रामं गच्छामः संस्कृतशिक्षां गच्छामः सर्वेषामपि तृप्तिहितार्थं स्वक्लेशं न हि गणयाम कृते प्रयत्ने किं न लभेत कृते प्रयत्ने किं न लभेतभगीरथवं सोऽस्माकं पायन्तु पायन्तु ्याला वाङ्मयरूपा सा भवतु लसतु चिरङ्गवाणी जनवाणी दूरवाणीं जनवाणीं कर्तुं यथा मयि कृतदूरा भगीरथवं सोऽस्माकं पायन्तु पायन्तु अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा धीरभगीरथवं पायन्तु कृतनिर्धारा अवगच्छन्ति वा तर्हि अग्रे अग्रे गच्छामः अस्तु प्रथमं कथां पठामः अनन्तरम् अत्र आगच्छामः इदानीं नूतनपुस्तकं कथापुस्तकमस्ति सुगन्धः पञ्चतन्त्रम् इति पुस्तकात् वयं पठितवन्तः सर्वाः कथाः वयं पठितवन्तः इदानीं सुगन्धः इति अन्यपुस्तकम् अस्ति तदपि लघुकथाः सन्ति तत्र अस्तु कः आरम्भं करोति श्रीनिवासमहोदय प्रथमः
विद्यारण्यः अस्ति दुङ्गभद्रायाः तीरे कश्चन ग्रामः तत्र मायनः नाम कश्चित् गृहस्थः निवसति स्म मायनस्य त्रयः पुत्राः माधवः सायनः भोगनाथः च इति. त्रयः अपि त्रयः अपि तेजस्विनः. ग्रामस्य समीपे कश्चन आश्रमः आसीत्. ते तत्र विद्याभ्यासं कुर्वन्ति स्म. माधवः अभ्यासे क्रीडादिषु च अग्रगण्यः गुरूणां प्रियतमः.
सम्यक्. अहं केवलं व्याकरणविषये वदामि. गृहस्थः वयं स्थः इति पदम् उपयोगं कुर्मः चेत् तत्र सन्ति इति. गृहस्थः इत्युक्ते गृहे ये सन्ति, यः अस्ति सः. ग्रामस्थः इत्युक्ते ग्रामे यः अस्ति सः इति. स्थः इति पदं तादृश अर्थं बोधयति. अन्यत् एकम् अस्ति तेजस्विनः इति. तेजस्विन् इति मूलरूपम्. उदाहरणार्थं स्वामिन्, योगिन् इव. बहुवचनमस्ति तेजस्विनः. तेजस्वी, तेजस्विनौ, तेजस्विनः इति. अस्तु. अग्रगण्यः इत्युक्ते अर्थः कः? लीडर्स्. लीडर्स् फोर् फ्रण्ट् इति. अस्तु महोदय, तावदेव. अपि च अन्यत् एकमस्ति प्रियतमः इति वदामः चेत् कम्पेर् कृत्वा बहु उत्तमम्. सूपर्लेटिव्. तरः इति वदामः चेत् इतोपि बेटर्, बेटर् इति. गुड्, गुड्, बेटर्, बेस्ट्. सो तमः इति बेस्ट्, तरः इति बेटर् एवम् अस्ति. अस्तु.
प्रियः, प्रियतरः, प्रियतमः.
प्रियः, प्रियतरः, प्रियतमः. सम्यक्
भगिनि. क्रीडा अर्थ किं भगिनि?
किं
क्रीडादिषु?
क्रीडा आदिषु इत्युक्ते क्रीडायामपि उत्तमः. परन्तु तादृशं केवलं क्रीडा न, पठनसमये अपि इति. पठनम् अपि च किमपि. या उत्तमप्रश्नः. सो यदा वयम् आदि इति पठामः एट्सेट्रा इति अर्थे.
सो शू अद् सप्तमी विभक्ति. सो क्रीडा
सप्तमी विभक्ति. आम्, सप्तमी विभक्ति. इन्, इन् इति. इन् प्लेयिङ्ग् एट्सेट्रा इति.
ओके ओके, धन्यवादः भगिनि.
अस्तु.
नमस्कारः भगिनि, अहं गोपिका.
स्वागतं भगिनि.
नमस्कारः भगिनि उषा.
स्वागतं भगिनि.
नमस्कारः भगिनि, अहं सविता.
स्वागतं भगिनि. सर्वेषां स्वागतं
भगिनि. मायणः अर्थः किम्?
न, तस्य नाम अस्ति.
ओ, नाम अस्ति मायणः.
तत्र मायणः नाम कश्चित् गृहस्थः निवसति स्म. मायणः इति तस्य नाम अस्ति.
धन्यवादः.
अवगच्छन्ति वा प्रथम पत्नीं? महोदय वदति वा किमपि आङ्ग्लभाषायां वा संस्कृतभाषायां वा?
लेट् मी ट्रै विच् ओर, नो प्रोब्लम्.
सम्यक्.
कश्चन ग्रामे मायनक नाम कश्चित् गृहस्थः वसति. वसति स्म. या वसन्, वसन् तस्य त्रयपुत्रकाः सन्ति. तस्य नामक माधवः, सायनः च भोगनाथः
भोगनाथः च सो अपि च महोदय नामः इति पदं नास्ति नाम इति नपुंसकलिङ्गपदं नामन् इति मूलरूपम् अतः बहुवचनम् आवश्यकं चेत् नामानि तेषां नामानि नामानि इति अपि च कस्मिंश्चित् ग्रामे कस्मिंश्चित्
कस्मिंश्चित् ग्रामे ओके
ग्रामे सम्यक् अग्रे
ओके त्रयपुत्राः ग्रामस्य समीपे समीपे कश्चित् आश्रमे विद्याभ्यासं कुर्वन्ति
अत्रापि कस्मिंश्चित् आश्रमे सम्यक्
कस्मिंश्चित् आश्रमे विद्याभ्यासं कुर्वन्ति माधवः अभ्यासे अल्टर्नेट् वर्ड् फार् अग्रगण्यः
अग्रगण्यः इत्युक्ते बहु उत्तमः
माधवः बहु चतुरः
चतुरः
प्रियतमः अपि
सम्यक् अस्तु धन्यवादः चम्पा भगिनि अपि च अन्यपदमस्ति तेजस्वी इत्युक्ते किं तेजस्वी इत्युक्ते
ब्रैट्
ब्रैट् वेरि वेरि ब्रैट् सम्यक् ब्रैट् इति सम्यक्
प्रियः प्रियतम प्रियः प्रियतमः प्रियतम
प्रियः प्रियतरः तर
प्रियतरः
प्रियतमः
सो गुड् बेस्ट् इन् बेटर् रैट्
गुड् बेटर् बेस्ट् गुड् इति प्रियः मीन् प्रियः इत्युक्ते फेवरेट्
आम्
प्रियतरः मीन्स् इट्स् हीस् मोर् फेवर्ड् इति प्रियतमः इत्युक्ते हिस् बेस्ट् लव्ड् इति
आम् अवगच्छामि
गुड् बेटर् बेस्ट् सम्यक् चम्पा भगिनि
आं भगिनि उषः कालः माधवः सहाध्यायिभिः सह स्नानार्थं नदीम् आगतः सः नद्यां तरति स्म तदानीं दूरे एकस्याः श्रियाः चीत्कारः
चीत्कारः इत्युक्ते शौटिङ्ग्
माधवः किम् इदम् इति चिन्तयन् परितः दृष्टवान् पुनः अपि चीत्कारः माधवः सद्यः एव तीरम् आगतवान् चीत्कारम् अनुसृत्य धावितवान् च उषःकालः माधवः सहाध्यायिभिः स्नानार्थं नदीतीरं गतवान् सः नद्यां तीर्तवान् तदा दूरे एकस्याः श्रियाः चित्कारं श्रुतवान् माधवः किम् इदं चिन्तितवान् परितः दृष्टवान् पुनः अपि चित्कारः श्रुतवान् माधवः सद्य इव तीरम् आगतवान् चित्कारम् अनुसृत्य धावितवान्
अस्तु सो अत्र उषःकालः इत्युक्ते अतिप्रातःकालः वेरि अर्लि इन् द मार्निङ्ग् इति यदा सूर्यः उदेति तदा इति उषःकालः सः अध्यायिभिः इति यः अध्ययनं करोति तस्य नाम अस्ति किम् अस्ति अध्यायी
सहपाठी
सम्यक् सहपाठिभिः सह अस्तु अन्य किम् अस्ति चीत्कारः इत्युक्ते शौटिङ्ग् स्क्रीमिङ्ग् इति चीत्कारः चिन्तयन् इति वदामः चेत् शत्रुप्रत्यय इत्युक्ते कार्यद्वयम् एकस्मिन् समये एव कुर्मः चेत् प्रथमकार्यस्य रूपम् एवं भवति चिन्तयन् अहं वदामि पश्यामि वदन् पश्यामि अहं पश्यामि वदामि पश्यन् वदामि एतादृशं परन्तु पुल्लिङ्गे चिन्तयन् इति भवति स्त्रीलिङ्गे चिन्तयन्ती दृष्टवती इति तादृशमस्ति सो अत्र कार्यद्वयम् एकस्मिन् समये एव कार्यद्वयम् एकं कृत्वा अन्यत् करोति चेत् चिन्तयित्वा दृष्टवान् इति भवति अथवा दृष्ट्वा चिन्तितवान् इति परन्तु तादृशं नास्ति अत्र अस्तु चिन्तयन् परितः इत्युक्ते सर्वासु दिक्षु वामतः पुरतः दक्षिणतः इति सर्वत्र दृष्टवान् अस्तु सद्यः इत्युक्ते इमीडियट्लि तस्मिन् क्षणे एव तीरम् आगतवान् पूर्वं सः तरणं कृतवान् तरणं कुर्वन् आसीत् परन्तु इदानीं झटिति तत्क्षणे एव तीरम् आगतवान् चीत्कारं कुत्र अस्ति इति अनुसृत्य धावितवान् अनुसृत्य इत्युक्ते टु फालो इति चीत्कारम् अनुसृत्य धावितवान् इति अस्तु गोपिका भगिनि धन्यवादः भगिनि चम्पा भगिनि
राजमार्गे एका शिबिका शिबिकां परितः यवनसैनिकाः सन्ति ते शिबिकावाहकान् भीषयन्ति शिबिकायाम् एका तरुणी अस्ति तां तरुणीम् अपहर्तुं ते सैनिकाः प्रयत्नं कुर्वन्ति सा तरुणी भयात् क्रन्दनं करोति
अस्तु सो अत्र शिबिका इत्युक्ते पेलङ्क्विन् इति पूर्वस्मिन् काले आसीत् खलु पेलङ्क्विन् शिबिका आसीत् शिबिका परितः अपि सर्वासु दिक्षु सरौण्डिङ्ग् इति परितः यवनसैनिकाः इत्युक्ते वृद्धः नास्ति बालकः अपि नास्ति यवन यङ्ग् इति यवनसैनिकाः सन्ति ते शिबिकावाहनान् भीषयन्ति इत्युक्ते
भयं करोति
सराौण्डेड् शिबिकायाम् एका तरुणी भवती एव वदतु क्षम्यतां वदतु
राजमार्गे एका शिबिका आसीत् शिबिकां परितः यवनसैनिकाः सन्ति
अस्तु ते किं कुर्वन्ति
ते शिबिकावाहकान् भीषयन्ति
अस्तु
एका तरुणी शिबिकायाम् आसीत् तां तरुणीम् अपहर्तुं सैनिकाः प्रयत्नं करोति स्म
अग्रे
सा तरुणी भयात् क्रन्दनं करोति
अस्तु भीषयन्ति परितः सैनिकाः सन्ति भयं कारयति, भीषयन्ति, सरौण्ड् कृत्वा भयं कारयति. शिबिकायां तरुणी अस्ति, भीत्या सा तरुणी भयात् भीत्या क्रन्दनं करोति. अस्तु अस्तु,
इत्युक्ते रोदनं खलु?
रोदनं स्क्रीमिङ्ग् इति, स्क्रीमिङ्ग्. अस्तु अम्ब
भगिनि, प्रश्नः, भीषयन्ति सराउण्ड् एण्ड् फ्रैटन्?
न, फ्रैटन्ड् एव, फ्रैटन्ड् एव,
फ्रैटन्ड्,
फ्रैटन्ड् एव. किमर्थम् इत्युक्ते परितः आल्रेडि सराउण्डेड्, परितः यौवनसैनिकाः.
एण्ड् दे वर् फ्रैटनिङ्ग् द पालन्क्विन् बेरर्स्.
शिबिका वाहनान्, सो अत्र एकः एव शिबिका न, राजमार्गे एका शिबिका अस्ति, परन्तु शिबिका इत्युक्ते पालन्क्विन्, परन्तु देर् आर् अदर् वाहनास् आल्सो. शिबिका वाहनान् भीषयन्ति इति.
No, these are the, are they talking about the palanquin bearers, those who carry the palanquin?
Aam, aam,
aam, aam. One palanquin will have four people carrying, right?
Samyak, samyak, samyak. Vahakah.
Vahakah. Aam,
bhagini. Shibika vahakah santi, vahakan bhishayanti. Aam, samyak.
Bhishayanti, the mool rup kim?
मूलरूपम् इस् सो अत्र भी इति भयं करोति भगिनि, भी भी इति भयं करोति इति इति अस्ति. सो अत्र णिच् प्रयोगः अस्ति, भीषयति, भाययति, भीषयति इति. धन्यवादः भगिनि, उत्तमप्रश्नः, निच् प्रयोगः अस्ति अत्र. अस्तु अम्ब पठति वा? अस्ति,
माधवः एतत् सर्वं दृष्टवान्. माधवस्य महान् क्रोधः आगतः. यवना भारतदेशे स्त्रियः अपमाननं कुर्वन्ति किम्? अवन यवनानां एतादृशाम् औदत्यं किम् इति आलोचितवान् सः.
अस्तु,
एतत् सर्वं दृष्टवान् माधवः. माधवस्य महान् क्रोधम् आगतः. स्त्रियः अपमानं कुर्वन्ति किम्? भारतदेशे स्त्रियः अपमानं कुर्वन्ति न
कोऽपि एतादृशं मा कुर्वन्तु. किमर्थं कुर्वन्ति इति, अपमानं किमर्थं कुर्वन्ति?
यवनानां एतादृशम् औदत्यं किम्?
औदत्यम् इत्युक्ते किं भगिनि?
ओडासिटि.
ओडासिटि, सम्यक्, ओडासिटि
इति आलोचितवान् सः.
आलोचितवान् इत्युक्ते
इति माधवः आलोचितवान्.
आलोचितवान् इति चिन्तितवान्. सो अत्र व्याकरणदृष्ट्या पश्यामः चेत् महान् इति इति पदं मैति आङ्ग्ले, महत्, महत् सम्यक्, महत्, महत् इव. सो अत्र क्रोधः इति पुल्लिङ्गपदम्, अतः महान् क्रोधः इति भवति. स्त्रीलिङ्गमस्ति चेत् महती इति भवति, नो चेत् महत्. अस्तु, सो अन्यत् किमपि नास्ति. यवनानाम् एतादृशम् औद्धत्यं किमर्थम् इति. किम् इत्युक्ते कीदृशम् औद्धत्यम् अस्ति इति. तत् समीचीनं नास्ति इति अस्ति. अस्तु अग्रे का जयश्री भगिनी.
आं भगिनि, माधवः निरायुधः आसीत्. सः तत् गृणीतवान्, सद्यः एव आक्रमणं कृतवान्. यवनानाम् उपरि हस्तप्रहारं कृतवान्, स्त्रियाः विमोचनं साधितवान् च.
निरायुधः इत्युक्ते
आयुधं विना.
आयुधं विना स आयुध सायुध इत्युक्ते आयुधेन सः आसीत् इति. इदानीं निरायुधः, आयुधं नास्ति, आयुधं विना आसीत्. न गणितवान् इत्युक्ते तत् न गणितवान्, सः काल्कुलेट् न कृतवान्, सः इग्नोर् ओ मम समीपे एतत् नास्ति, ते खड्गं प्रायः तस्य समीपे खड्गम् अस्ति, एतादृशं न चिन्तितवान् इति. न गणितवान् इत्युक्ते काल्कुलेट् एव, दट् इस् द प्रापर् ट्रान्स्लेशन्. गणनं कृतवान्, न गणितवान्.
He did not count him in.
He did not count that in. He did not figure it out. They have weapons, I don't have weapons. Tadisha chintanam na kritavan iti.
But that didn't deter him.
It did not deter him, yeah. So we can interpret in so many ways. Asti Jayashri Bhagini, kim api vaktu mishriti va?
No. आं भगिनि, सः सैनिकायाम् आक्रमणं कृतवान् यवनानाम् उपरि सः हस्तप्रहारं कृतवान् च. स्त्रियाः तस्य तस्य आपदं विमोचनं कृतवान्.
आपदतः विमोचनं कृतवान्. सम्यक्. अस्तु, किं किं भगिनि?
विमोचनं
फ्री.
धन्यवादः.
इमीडियट्लि
मुक्तः भवति वा? विमोचनं
मुक्तं साधितवान्, स्त्रियाः मुक्तं साधितवान् इत्युक्ते ही वास् एबल् टु फ्री हर्. साधितवान् इत्युक्ते हि अकम्प्लिश्ड् द फ्रीडम् आफ् द लेडि. साधनं. धन्यवादः. बहु बृहत् कथा अस्ति, अतः अग्रिमवर्गे वयम् अनन्तरं पठामः. इदानीं सप्तविभक्तेः प्रयोगः कुत्र भवति इति पुनरेकवारं पश्यामः. लता भगिनी पठति वा कृपया?
आं भगिनि. सप्तमी विभक्तेः प्रयोगः कुत्र भवति? आधारस्य सप्तमी विभक्तिः भवति. कुत्र, कस्मिन्, कस्याम् इति प्रश्नानाम् उत्तरं सप्तमी विभक्तौ भवति. स्यूते, पेटिकायां, नद्यां, गृहे च अस्ति. परन्तु कुत्र गच्छति इति प्रश्नस्य उत्तरं द्वितीया विभक्तौ भवति. आपणं गच्छति, शालां गच्छति, काशीं गच्छति, गृहं गच्छामि.
धन्यवादः. प्रश्नः अस्ति वा? नो चेत् अग्रे गच्छामः. अस्तु, मालती भगिनी पठितुम् इच्छति वा अथवा म्यूट् मध्ये समस्या अस्ति इति चिन्तयामि. अस्तु, निर्मला भगिनी.
विषयस्य आधारे अपि सप्तमी विभक्तिः भवति. संस्कृते मम आसक्तिः अस्ति. संस्कृते अहम् आसक्तिं प्रदर्शयामि. भाववाचकः आसक्तिः, आधारः, इच्छा, प्रीतिः, अभिरुचिः, कृपा, भक्ति, विनयः, नम्रता, वात्सल्यं, मैत्री, प्रेम, गौरवम् इत्यादयः.
इत्यादयः. सो अत्र वाट् वि काल् ऐ मीन् अस्तु, कानिचन वस्तूनि वयं स्प्रष्टुं शक्नुमः खलु, टच् फील् कर्तुं शक्नुमः. उदाहरणं लेखनी, कूपी, एतादृशं. परन्तु अत्र भाववाचक भावमेव आसक्तिः, आदरः, एतादृश वाट् वि काल् इन्टेञ्जिबल्स् खलु, वयं द्रष्टुं स्प्रष्टुं न शक्नुमः, अनुभवितुमेव शक्नुमः. तादृशभाववाचकानां विषये अपि वयं वदामः विषयरूपस्य आधारः. विषयरूप इति अन्यपदम् अस्ति, विषयरूपः इति. अवगच्छन्ति खलु? बहु सुलभः एव.
So it doesn't necessarily have to be only bhavavachakam then.
No, bhavavachakam api. Udaharanam, tasmin vinayaha asti. Tasmin mama premaha asti. Like that. Mama prema asti. Iti vaktum shaknumaha.
Yeah. I mean, when you say vishaya rupasya adhare, that vishaya rupam can be anything, right? Besides emotions.
No, but they are saying the bhava vachaka is vishaya rupa. This is what they say.
Okay.
Bhagini,
they are not saptami vibhakti form. They are pratama vibhakti form. धन्यवादः. अस्तु, सागरी भगिनी.
आं भगिनि, विश्वसिति स्निह्यति इत्येतयोः धात्वोः प्रयोगः यत्र भवति तत्र स्नेहस्य विश्वासस्य सत् पात्रं तस्य सप्तमी विभक्तिः भवति. माता पुत्रे स्निह्यति, दुर्जने मा विश्वसितु.
सो अत्र दीस् आर् आल् स्पेशल् क्रियापदं, विश्वसिति, स्निह्यति, एतादृशम्. सो विश्वसिति, स्निह्यति इति क्रियापदम् अस्ति चेत् तस्य पात्रं किं? हू इस् द रेसिपियण्ट् आफ् द स्नेह? हू इस् द रेसिपियण्ट् आफ् विश्वास? तस्य सप्तमी विभक्तिः भवति. माता पुत्रे स्निह्यति, दुर्जने मा विश्वसितु इति उदाहरणम् अस्ति. अस्तु, सन्ध्या भगिनी.
कर्मणः यस्मिन् अङ्गे ग्रहणं, ताडनं, सहरणं वा भवति तस्य अङ्गस्य सप्तमी भवति. आरक्षकः चोरं कर्म कण्ठे गृहीतवान्. कर्मणः विभक्तिः तु द्वितीया. आरक्षकः चोरस्य कण्ठं गृहीतवान्.
अस्तु, सो अत्र आरक्षकः चोरं गृहीतवान् इति सम्यक्. आरक्षकः कं गृहीतवान्? चोरं. चोरं गृहीतवान्. चोरं कुत्र गृहीतवान्? कण्ठे गृहीतवान्. कण्ठे गृहीतवान्. सो अत्र अपि विशेष पदं सन्ति, विशेषपदानि सन्ति अत्र. ग्रहणं, ताडनं, प्रहरणं. ग्रहणं, ताडनं, प्रहरणं यस्मिन् अङ्गे वयं कुर्मः तस्यापि सप्तमी विभक्तिः भवति.
द्वयमपि सम्यक् वा भगिनि? चोरं कण्ठे गृहीतवान् अथवा चोरस्य कण्ठं गृहीतवान्?
चोरस्य कण्ठं गृहीतवान् सम्यक् एव, परन्तु कण्ठे गृहीतवान् इति वदामः चेत् चोरं कण्ठे गृहीतवान्.
But this is a नियमं, right? चोरं कण्ठं, चोरस्य कण्ठं will be different. But if you're following the niyam here,
this is the niyamah. This is the niyamah. Choram kante kutra grihitavan, kante grihitavan. Atra we cannot say kutra grihitavan, right? Kam grihitavan, kantam grihitavan. Kasya kantam grihitavan, chorasya kantam grihitavan. Different. So we mean the same thing, but different.
Dvitya bhavati tada sapti vibhakti agachati.
Samyak.
So what is meant by karmanah vibhakti hetu dvitya?
So this is the karma pada. Chorah is the karma pada.
So karmanah is what?
Is the shashti vibhakti of karma.
Karma, okay.
Because the moola padam is karman.
Oh, okay.
Karmanah vibhaktihi dvitiya.
So, tu means but, is it?
But.
So, he's saying when it is a karma padam, then it will be dvitiya.
Dvitiya.
Okay.
So, Bhagini, would it mean that in the first sentence, it is the policeman caught the thief by his neck? And in the second, it would mean the policeman caught the thief's neck.
Samya. Angira Bhasha, we say by, right? Parantu Samskrita Bhashayam Tatana. It's different. We cannot do complete translation.
Astu Bhagini,
Dhanyavada. Dhanyavada, Astu. Agree, Sharada.
Local languages, the translation comes perfect actually. I was just trying to do this in Tamil.
Yes, it Tamil.
Beautifully. Okay.
Badutu Mahatya.
Correct me if I'm wrong. Choram kand
Thiridane
kalithil pidithaan.
Kalithil, samya.
Thiridanudaiya kaluthai pidithaan.
Thiridanudaiya kaluthai pidithaan. Samya. Perfect.
It's maybe in Indian languages the translation may come much easier as compared to English probably.
Absolutely. Whenever you want to translate from the Matrabhasha. You think in the Matrabhasha and translate, or just think in Sanskrit. Samya. Anya Bhashayam Vaktum Ichchati Va? Hindi Bhashayam Athava Telugu Kimapi? अस्तु अग्रे अग्रे का अस्ति शारदा भगिनी.
नमस्कारः भगिनी. यदा जनेषु निपुणता, कुशलता, सामर्थ्यम् इत्यादिकं प्रकटयामः तदा यस्मिन् सः गुणः अस्ति तस्य सप्तमी भवति. सा संस्कृते निपुणा, कुशला, समर्था अस्ति.
संस्कृते तादृशं सुलभः एव इति चिन्तयामि. वयं कथायामपि पठितवन्तः खलु क्रीडादिषु, क्रीडा. अस्तु अग्रे. सुनन्दा भगिनि पठितुम् इच्छति वा?
आं भगिनि. षष्ठ कदा इति प्रश्नस्य अपि सप्तमी भवति. अद्य अव्ययं भावानुसारे एकादश्याम् इति.
भानुवासरे एकादश्यां सप्तवादने एतादृश कालं सूचकम्.
What does एकादश्यां mean?
एकादशी एकादश्यां.
एकादशी. ओके
अस्तु. उर्मिला भगिनी अग्रे.
पृथक्करणे सप्तमी विभक्तिः भवति. पाण्डवेषु युधिष्ठिरः ज्येष्ठः. षष्ठी अपि भवति. पाण्डवानां ज्येष्ठः युधिष्ठिरः.
भगिनी, वाट् इस् द डिफ्रेन्स् इन् द स्पेलिङ्ग् इन् पृथक्करणे? देर् इस् पृथ विद् महाप्राण पृथ.
सो दिस् इस् प्रोबब्लि महाप्राण. इट्स् प्रोबब्लि my mistake.
Oh, it's a type word.
I will change it right now. धन्यवादः. अस्तु.
अर्थः कः भगिनि?
अर्थः कः इत्युक्ते बहु जनाः सन्ति, तेषु एकः एव मम प्रियतमः इति. तादृशं सेपरेट् वन् फ्रम् द ग्रूप् अमङ्ग् अमङ्ग्.
करणी षष्टि.
सप्तमी खलु पृथक् करणे.
ओ सप्तमी.
सप्तमी.
ओके.
Karanam means to do, right? In doing karanam. Preparation. Yeah. Pandavesha. Among the Pandavas, Yudhishthiraha Jeshtaha. Astu. Usha Bhagini.
Sati Saptami. Oh God. This one is hard for me to understand. Anyway, Sat Saptami. Vakye. सप्तमी विभक्तिः भवति. यदा बालकः गतवान् तदा बालिका आगतवती. बालके गतवती सति. बालके गतवती सति बालिका आगतवती. सो वि आर् चेञ्जिङ्ग् इसन्ट् इट् द फस्ट् सेण्टेन्स्
द फस्ट् पार्ट्
टु
सप्तमी विभक्ति. Everything saptami vibhakti.
So gatavan, is it a kridanta padam?
Kridanta padam. So gatavan iti padasya pratipadikam gatavat. Gatavat is like bhavat. What is the saptami of bhavat? Bhavati. So it is gatavati.
Okay, gatavati.
So balake gatavati. बालिका आगतवती.
सो बै पुटिङ्ग् द ब्राकेट् इन् ब्राकेट् सति, दे सेङ्ग् दट् सेण्टेन्स् बिकम्स् अ सति.
सति सप्तमी. या. सो वि आर् सेङ्ग् वि आर् यूसिङ्ग् सति सप्तमी. वि डोण्ट् हाव् टु से सति. वि जस्ट् से बालके गतवती बालिका आगतवती. सो वि आर् जस्ट् रिड्यूसिङ्ग् द नम्बर् आफ् वर्ड्स्. यदा तदा इत्यादिकं नास्ति. बालिका आगतवती.
गतवान् इति पदस्य प्रातिपदिकं गतवत्. गतवत् इति प्रातिपदिकस्य सप्तमी अस्ति गतवती. ओके. दट्स् वाट् यु सेड् ऑलरेडी. यदा बालिका गतवती तदा अम्बा आगतवती. बालिकायां गतवत्यां सत्याम्. ओके. अम्बा आगतवती. सो देर् इस् स्त्रीलिङ्गं, दट्स् वै वी कालिङ्ग् इट् सत्यां.
सत्यां. बालिका बालिकायां
गतवती
गतवत्याम् इति.
अस्तु.
भगिनी सती सप्तमी अहं न जानामि सप्ति सप्तमी अर्थं किम्
अस्तु सो सती सप्तमी इति अन्यप्रयोगः भगिनि सो अत्र सप्तमी विभक्तिरूपम् उपयुज्य यदा तदा वाक्यमस्ति चेत् परिवर्तनं कर्तुं शक्नुमः सो अत्र उदाहरणमस्ति यदा बालकः गतवान् अन्य उदाहरणं सो अत्र वर्तमानकाल उदाहरणं वदामि यदा बालकः गच्छति तदा बालिका आगच्छति इति अस्ति वर्तमानकाले सो अत्र यदा तदा त्यजामः प्रथमभागः अस्ति बालकः गच्छति तत् सर्वं वयं सप्तमीविभक्तिरूपं परिवर्तनं कुर्मः बालकः विल् बिकम् बालके परन्तु गच्छति इति पदं वयं प्रथमं शत्रुप्रत्यये परिवर्तनं करणीयं सो सती सप्तमी किञ्चित् अड्वान्स् भगिनि परन्तु वयं अवगन्तुं शक्नुमः बृहत् विषयः अस्ति परन्तु कठिनं नास्ति सो अत्र शत्रुप्रत्यये कथं भवति गच्छन् गच्छन् इति अस्ति सो गच्छत् इति प्रातिपदिकं सो गच्छते गच्छति इति भवति बालके गच्छति तदा बालिका आगच्छति अत्र गतवान् इति अस्ति सो बालके गतवती बालिका आगतवती बालिका आगतवती इति द्वितीयभागस्य परिवर्तनं न भवति
भगिनि केन् यु रैट् द स्टेप्स् प्लीस् आफ् गच्छति
या
ऐ चेञ्ज् इट्
या ऐ थिङ्क् ऐ रोट् इट् बिफोर् बट् ऐ ट्रै इट् अन्यप्रश्नः भगिनि वदतु एकनिमिषं ऊर्मिला भगिनि प्रश्न वदतु भगिनि
नो अत्र भवती उक्तवती बालकः सो बालके गच्छन्
सो एतदेव स्वीकरोतु गतवान् इत्येव स्वीकरोतु गतवान् गतवान् इति पदस्य प्रातिपदिकं गतवत् खलु गतवत्
गतवत्
गतवत् इति प्रातिपदिकं गतवान् इति पदस्य प्रातिपदिकम् अस्ति गतवत् गतवत् इति पदस्य सप्तमी अस्ति गतवती उदाहरणम्
अवगच्छामि अवगच्छामि
भवत् शब्दः इव
भवत् शब्दः
बालके गतवती इति भवति अन्यप्रश्नः
भगिनी बालके गतवती गतवती कः कालः
सप्तमी
सप्तमी विभक्ति कालं न सूचयति इदानीं परन्तु भूतकालसप्तमी क्षम्यतां भूतकालसप्तमी सति सप्तमी
धन्यवादः
भगिनि गच्छति then you make it shatra which is gachchan then what is the next step
and then the pratipadikam of gachchan is gachchat
gachchat
gachchat then it is gachchati
okay
bhagini what is kridanta padam
kridanta is the rupam which we get from kriya padam
That's why we call it Kridanta Padam.
Probably, yeah.
So it can be any Kriya Padam that is changed, transformed into something else. Like we did here.
Okay. Asti. Idani Rupani Pashyamaha. Rame Ramayoho Ramesho. Atra api asti vayam pustakam prati gachamaha. Pustake api samyak asti. Asti.
Which page?
Page 65. Mama pustake praya 66 65 tatra pashyatu bhagini. Veena Ben bhagini atra and prathamam patatu.
Namaskar bhagini.
Namaskar.
अकारान्त पुल्लिङ्गशब्दाः एकवचन द्विवचन बहुवचनं ग्रन्थः ग्रन्थे ग्रन्थयोः ग्रन्थेषु देहः देहे देहयोः देहेषु जनः जने जनयोः जनेषु यज्ञः यज्ञे यज्ञयोः यज्ञेषु
सम्यक् इदानीं सर्वनामपदं योजयित्वा कथं वदामः तस्मिन् ग्रन्थे तस्मिन् तयोः तेषु तस्मिन् ग्रन्थे तयोः ग्रन्थयोः तेषु ग्रन्थेषु
तस्मिन् देहे तयोः देहेषु
तयोः देहयोः
तयोः देहयोः
तेषु ग्रन्थेषु
ग्रन्थेषु
तेषु ग्रन्थेषु तस्मिन् तयोः
तस्मिन् इस् वाट्
पुल्लिङ्ग पुल्लिङ्ग
तकार
तद् तस्य सप्तमी सप्तमी विभक्ति तस्मिन् महोदय वदतु
नार्मलि सेण्ड् दिस् टेबल् नाट् दिस् वन् द वन् ओन्लि सप्तमी यु शुल् बि हाविङ्ग्
Yeah, this is only Saptami. This is Saptami, Nama Padani, Sarva Nama Padani, Api Asti.
Could you please put it on WhatsApp, madam, by me?
Sure. I'll do it right now. अस्तु कृतं सो अत्र पुल्लिङ्ग अस्ति अतः तस्मिन् तयोः तेषु ओके अस्तु सो अत्र एतद् अस्ति चेत् एतस्मिन् एतयोः एतेषु हलो सो अन्यत् एकम् अस्ति कः इति उपयुज्य कथं वदामः विष्णुमहोदय
आम् भगिनि
जनः इति पदं स्वीकरोतु कः इति अस्ति सो वयं
कस्मिन् जनः
सम्यक् कस्मिन्
कस्मिन् जनः कस्मिन् जने
जने सम्यक्
जने कयोः जनयोः
सम्यक्
केषु जनेषु
केषु जनेषु सम्यक् सर्वे अवगच्छन्ति खलु कथं योजयित्वा वक्तव्यम् इति एतदेव किञ्चित् कठिनं परन्तु अभ्यासः आवश्यकः अभ्यासं कुर्मः चेत् सम्यक् एव अस्तु विष्णुमहोदय भवान् एव इकारान्तपुल्लिङ्गपदम्
आं भगिनि
धन्यवादः
अग्निः अग्नौ अग्नयोः अग्निषु
सो अत्र अग्नयोः न भवति अग्न्योः
अग्न्योः ग हलन्त मुनिः मुन्योः मुन्यौ मुन्योः मुनिषु
मुनिषु इदानीं योजयित्वा कः अथवा तद् अथवा
एतस्मिन् मुनि मुनौ एतयोः मुन्योः एतेषु मुनिषु
मुनिषु इदानीं भवत् शब्दः भवति भवति
मुनि इट्स् मुनिषु राइट्
मुनिषु
नाट् मुनिषु
नाट् मुनिषु मुनिषु
मुनिषु
तस्मिन् भवति
न भवति ओके अस्तु नास्ति एतत् सम्यक् न भवति अस्तु अस्तु सम्यक् न भवति किमर्थम् इत्युक्ते भवति इति वदामः चेत् अन्य किमपि पदम् आगच्छति एतत् सम्यक् न भवति अस्तु श्रीनिवासमहोदय राशि इति स्वीकृत्य रूपाणि
राशौ राश्योः
आम्
राशिषु
राशिषु अस्तु सो अत्र तस्मिन् वा कस्मिन् वा एतस्मिन् वा उपयुज्य मिलित्वा
अस्मिन् राशौ
तस्मिन् इति तस्मिन् राशौ
तस्मिन् राशौ तस्योः राश्योः
तयोः राश्योः
तयोः राश्योः
तस्मिन् तस्मिन् तयोः तेषु
तेषु राशिषु
तेषु राशिषु सम्यक् तेषु राशिषु
अस्मिन् अन्योः
आं न तथा न भवति तस्मिन् तयोः तेषु कस्मिन् कयोः केषु एतस्मिन् एतयोः एतेषु
इदम् अस्मिन् अन्योः येषु डिफरेण्ट्लि
दट् इस् डिफरेण्ट् सो लेट्स् नाट् गो देर् नौ इदानीं तत् मास्तु केवलं तस्मिन् अपि च कस्मिन् तस्मिन् अथवा एतस्मिन् एवं पश्यामः अस्तु चम्पा भगिनी गिरिः चम्पा भगिनी
आं भगिनि
समस्या
गिरिः गिरौ गिरयोः
गिर्योः
गिरयोः
गिरिषु गिर्योः गिरिषु सम्यक् गिरौ गिर्योः गिरिषु सम्यक् इदानीं योजय
गिरिषु शुड् बि दीर्घैकार
न ह्रस्व एव खलु ओन्ली फार् षष्टि विभक्ति विगो गिरीणां हरीणां लग्
सो ह्रस्व इकारान्त भवति तदा ह्रस्व हि भवति
ह्रस्व एव भवति सम्यक्
सो तस्मिन् गिरौ तयोः गिरयोः गिरिषु
तस्मिन् तयोः गिर्योः गिर्योः
गिर्योः तयोः गिर्योः तेषु गिरिषु
गिर्योः एवं
गिर्योः
गिर्योः सम्यक् अस्तु गोपिका भगिनी उकारान्तपदम् सो अत्र भेदः किम् इत्युक्ते य अस्ति उकारः अस्ति चेत् व व भवति
पठामि
पठतु भगिनि
गुरुः गुरौ गुर्वोः गुरुषु
गुरुषु सम्यक्
असुः असौ अश्वोः असुषु
असुषु ह्रस्व उकार ह्रस्व उकार असुषु
Bhagini, the meaning of Asu is different, right? From Ashru?
Aam, aam, aam. Vatavarge, aham uktavati Asu iti te Ashru iti. Parantu agre aham dhishtavati koshe iti te brat. Anya kopi api uktavati, brat iti.
Brat, okay.
Asmakam. Asmakam shvasah asti kalu.
श्वासः धन् श्वासः अश्रुः
असु सु लैक् स्व असु श्वासु श्वासम् एवं
प्रातिपदिकं वद असुः और् इस् देर् नो प्रातिपदिकं वाट् यु से धातव
देर् मस्ट् बि सम् प्रातिपदिकं मस्ट् बि अहम्
It's a dhatu, right? It's a
dhatu, right?
No,
it's a nama pada. Shabda. Nama pada. Hmm.
Nama pada.
Okay.
Nama pada.
Asu
bhagini, militva vadati
va?
Am bhagini. Tasmin asau. Tayoho asvoho.
Samya.
Tetu asushu.
Samya. Tasmin kayoho keshu. अस्तु सम्यक् इषुः अम्ब वदति वा इषुः अथवा बाहुः इषु इत्युक्ते बाणः बाणः बाहुः इत्युक्ते The
shoulder.
Arm.
Shoulder.
Bhuja. Bhuja. The whole arm. Bahu. Dirga, dirga bahu. Shoulder ityukte skandaha eva. Skandaha ityukte shoulder.
So bahu artham hastaha karaha?
Hastaha karaha militva bahu. Sometimes bahu, we just say the upper arm, but bahu itikte full arm. Full arm atava upper arm api vadanti. Astu, amba nasti iti manye, Jai Shri Bhagini.
Bahu, bahu, bahu. बाहुषु
बाहुषु सम्यक् मिलित्वा वदतु
तस्मिन् बाहौ तयोः बाहोः केषु बाहुषु
सम्यक् केषु बाहुषु अग्रे अपि गच्छतु भगिनि ऋकारान्तपदम् जयश्री भगिनि भवती एव करोतु कृपया
कर्तरि कर्त्रोः कर्तृषु तस्मिन् कर्तरि तयोः कर्त्रोः तेषु कर्तृषु
सम्यक् बहु सम्यक् अस्तु अग्रे लता भगिनी पिता अथवा योद्धा अथवा धाता
पिता पितरि पित्रोः पितृषु पिता
मिलित्वा वदत्
कस्मिन् पितरि कयोः पित्रोः केषु पितृषु
केषु पितृषु योधा धाता अपि समानमेव भवति अस्तु निर्मला भगिनि आकारान्तपदं वयं जानीमः परन्तु वदतु सेना
सेनासु
सेनासु
एतस्मिन् सेनायां
सो अत्र स्त्रीलिङ्ग भिन्नरूपं खलु कस्याम् इति भवति यां
कस्यां सेनायां तयोः सेनयोः कासु सेनासु
सम्यक् कासु सेनासु सम्यक् कस्यां कयोः कासु अम्बा अपि तथा एव भवति गीता अपि तथा एव भवति अहं झटिति अग्रे गच्छामि अस्तु सागरि भगिनि इकारान्त स्त्रीलिङ्गशब्दाः
भगिनि श्रुतिः श्रुत्यां श्रुत्योः श्रुतिषु श्रुत्याम् अपि श्रुतौ वक्तुं शक्नुमः
सम्यक् सम्यक्
तस्यां श्रुत्यां तयोः श्रुत्योः तासु श्रुतिषु
तासु अत्र अत्र एव आकारान्त स्त्रीलिङ्गपदे एव सु भवति आसु भवति अन्य सर्वत्र शु एव अन्य सर्वत्र शु एव सम्यक् भगिनि गतिः अपि करोति सर्वनामपदं तासु एव नो 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 न सर्वनामपदं तासु एव परन्तु नामपदेषु आकारान्तपदं विहाय आकारान्त स्त्रीलिङ्गपदं विहाय सम्यक्
धन्यवादः
धन्यवादः अस्तु सागरि भगिनी गतिः अपि करोतु
गतिः गत्यां गत्योः गतिषु गतौ अपि वक्तुं शक्नुमः
सम्यक्
कस्यां गत्यां कयोः गत्योः कासु गतिषु
सम्यक् सर्वे वदन्तु केवलम् एका एव उच्चैः वदति अन्ये सर्वे म्यूट् मध्ये वदन्तु अस्तु
इदानीं विल् बि इन् सु दिस् विल् बि कासु गतिषु
आम् करेक्ट् करेक्ट् कासु कासु गतिषु ईकारान्तपदं वयं जानीमः एव अतः अग्रे गच्छामः वा नद्यां नद्योः नदीषु अस्तु एतत् कुर्मः किमर्थं न सन्ध्या भगिनि
आवर्तिनी आवर्तिन्याम् आवर्तिनीषु
आवर्तिनीषु
कस्याम् आवर्तिन्यां कयोः आवर्तिन्योः केषु आवर्तिनिषु आवर्तिनीषु
आवर्तिनीषु सम्यक् केषु सो अत्र कासु भवति कासु
कासु कासु स्त्रीलिङ्गमस्ति
कासु आवर्तिनीषु इति भवति आवर्तिनी इत्युक्ते रेपिटिशन् वयं दृष्टवन्तः कोशे आवर्तिनी इत्युक्ते वर्ल्पूल् अपि भवति आवर्तनम् इत्युक्ते रेपिटिशन् एवम् एवं भवति खलु वर्ल्पूल् इव भवति अस्तु न न चिन्ता मास्तु चिन्ता मास्तु अस्तु शारदा भगिनी इकार ह्रस्व उकार क्षम्यताम्
रज्जुः रज्वां रज्वोः रज्जुषु धेनुः धेन्वां धेन्वोः धेनुषु
धेनुषु अत्र उकारः अस्ति अतः व आगच्छति इकार ईकार अस्ति चेत् य उकार अस्ति चेत् व भवति अस्तु सर्वनामपदं योजयित्वा वदति वा
कस्यां धेन्वां कस्योः धेन्वोः
कयोः एव
कयोः धेन्वोः कासु धेनुषु
सम्यक् कासु धेनुषु सम्यक् धेनुषु अस्तु अग्रे सुनन्दा भगिनी वक्तुमिच्छति वा ऋकारान्त स्त्रीलिङ्गपदम्
भगिनी प्रश्नः बहुवचनं ह्रस्व अस्ति चेत् रज्जुषु वधू अस्ति चेत् वधूषु
वधूषु वधूषु
ऋकारान्त स्त्रीलिङ्ग् माता सप्तमी विभक्ति मातरि मात्रोः मातृषु
सम्यक्
कस्याः मातरि
कस्यां
ओ सोरि कस्यां मातरि कयोः मात्रोः
सम्यक्
कासु मातृषु
सम्यक् कासु मातृषु सम्यक् भगिनि
धन्यवादः
धन्यवादः ऊर्मिला भगिनि
अकारान्त नपुंसकलिङ्ग् शब्दाः क्षेत्रं क्षेत्रे क्षेत्रयोः क्षेत्रेषु अयनम् अयने अयनयोः अयनेषु सो अत्र कस्मिन् क्षेत्रे
सम्यक्
क्षेत्रयोः कयो केषु क्षेत्रेषु
सम्यक् केषु क्षेत्रेषु
अकारान् पुल्लिङ्ग् एव भवति वा चन्दनं चन्दने
चन्दने चन्दनयोः चन्दनेषु
चन्दनेषु
पुल्लिङ्गवत् एव
शस्त्रं शस्त्रे शस्त्रयोः शस्त्रेषु
सम्यक् कस्मिन् शस्त्रे कयोः शस्त्रयोः
केषु
शस्त्रेषु सम्यक् उषा भगिनी किञ्चित् भिन्नरूपाणि भवन्ति इकारान्त नपुंसकलिङ्ग
वारि वारिणि वाट् वारिणि मीन्स्
वारि इत्युक्ते जलं
जलम् ओके सो वारिणि वारिणोः वारिषु
वारिणि वारिणोः वारिषु
आल्रेडि डन्
नपुंसकलिङ्गपदे न भवति अत्र रेफा अस्ति अतः न उदाहरणार्थं रेफा ऋकारान्त शकारः अस्ति चेत् नकारः न भवति परन्तु अन्य नियमः अपि अस्ति रेफा ऋकार शकार अस्ति नकारः अस्ति मध्ये किम् अस्ति इति मध्ये कवर्गः फवर्गः अस्ति चेत् नकारः भवति अपि च य व अस्ति चेत् भवति नो चेत् न भवति अस्तु अक्षि अक्षिणी अक्षिणोः अक्षिषु अग्रिमं करोतु उकारान्त नपुंसकलिङ्गपदम्
मधु मधु मधुनी मधुनोः मधुषु
मधुषु
जानु जानुनि जानुनोः जानुषु जानु इत्युक्ते
जानु इत्युक्ते नि नि
ओके मधु इस्
मधु इस् स्वीट् खलु और् हनी इति वदामः खलु मधु
ओके हनी नपुंसकलिङ्गम् आल् दीस्
नपुंसकलिङ्गम् अस्तु सर्वनामपदं योजयित्वा वदति वा
एतत् एतत् सम्यक् वा
न एतस्मिन् खलु
ऐ एम् सोरि ऐ मीन् एतत् इस् नपुंसकलिङ्गम् ओके एत एतस्मिन् मधुनि एतयोः मधुनोः एतेषु मधुषु
अस्तु एतेषु मधुषु समानमेव श्मश्रु अपि भवति
श्मश्रु सकार अस्ति खलु श्मश्रु सकारमस्ति प्रथम अक्षरं
षकार
श्मश्रु
एकनिमिषं भगिनी वीणाबेन् भगिनी वदति वीणाबेन् भगिनी
धन्यवादः भगिनि श्मश्रु तदा ऋकारान्त भवति ओके
ऋकारान्त न उ उ एव श्मश्रु
श्मश्रु आं भगिनि श्मश्रूणि श्मश्रु णत्वं भवति
णत्वं
श्मश्रूणि श्मश्रूणोः श्मश्रुषु
षु श्मश्रुषु इदानीं सर्वनामपदं योजयित्वा
कस्मिन् श्मश्रूणि कयोः श्मश्रूणोः केषु केषु श्मश्रुषु
केषु श्मश्रुषु सम्यक् विष्णुमहोदय अग्रे अश्रु
आं भगिनि अश्रु अश्रूणि अश्रुणोः अश्रुषु नकार भवति वा
आम्
णकार न भवति
सो अत्र ऋ अस्ति खलु अनन्तरम् उ एव भवति
तदर्थे णकार भवति
भवति भवति
श्मश्रूणि कस्मिन् श्मश्रूणि कयोः श्मश्रूणोः केषु श्मश्रुषु
सम्यक् अश्रु अपि करोतु अश्रु
अश्रु आम् अश्रु अश्रूणि अश्रुणोः अश्रुषु
सम्यक् अश्रुणि अश्रुणोः अश्रु
एतस्मिन् अश्रूणिः एतस्मिन् अश्रूणि एतयोः अश्रुणोः एतेषु अश्रुषु
अश्रुषु सम्यक्
धन्यवादः
धन्यवादः सो अत्र समयः तावत् नास्ति वयं समापयामः अग्रे वयम् इतः आरम्भं कुर्मः आवरणे विद्यमानस्य शब्दस्य सप्तमीविभक्तिरूपेण रिक्तस्थानानि पूरयत विद्यमानस्य इति आत्मनेपदिदातु विद्यते विद्यमान सो विद्यमान इति शत्रन्तरूपं द वन् दट् इस् इन् इति शत्रन्तरूपं विद्यमान आवरणे within the brackets the parenthesis vidyamanasya shabdasya saptami vibhakti rupena tritiya vibhakti riktasthanani purayata ditiya vibhakti agrima varge itaha arambham kurmah idanim shanti mantram uktva samapayam ast kopi vaktum icchati va shanti mantra
अहं वदामि भगिनि.
वदतु.
सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. शान्ति शान्ति शान्तिः. धन्यवादः भगिनि.
धन्यवादः भगिनि. धन्यवादः.